अथाष्टाविंशः सर्गः स राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्य प्रियमप्रियार्ता सीतापि तत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या सा राक्षसी मध्यगता च भीरुर्वाग्भिर्भृशम् रावणतर्जिता च कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललापसीता सत्यम् बतेदम् प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः यत्राहमेवम् परिभर्त्स्यमाना जीवामि यस्मात् क्षणमप्यपुण्या सुखाद्विहीनम् बहुदुःखपूर्णमिदम् तु नूनम् हृदयम् स्थिरम् मे विदीर्यते यन्न सहस्रधाद्यवज्राहतम् शृङ्गमिवाचलस्य नैवास्ति नूनम् मम दोषमत्र वध्याहमस्य प्रियदर्शनस्य भावम् न चास्याहमनुप्रदातुमलम् द्विजो मन्त्रमिवाद्विजाय तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः नूनम् ममाङ्गान्यचिरादनार्यः शस्त्रैश्चितैश्चेत्स्यति राक्षसेन्द्रः दुःखम् बतेदम् ननु दुःखितायामासौ चिरायाभिगमिष्यतो द्वौ बद्धस्य वध्यस्य यथा निशान्ते राजोपरोधादिव तस्करस्य हा राम हा लक्ष्मण हा सुमित्रे हा राम मातः सह मे जनन्यः एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता तरस्विनौ धारयता मृगस्य सत्त्वेन रूपम् मनुजेन्द्रपुत्रौ नूनम् विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन नूनम् सकालो मृगरूपधारी मामल्पभाग्याम् लुलुभे तदानीम् यत्रार्यपुत्रौ विससर्जमूढा रामानुजम् लक्ष्मणपूर्वजम् च हा राम सत्यव्रतदीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्त्रा हा जीवलोकस्य हितः प्रियश्च वध्याम् न माम् वेत्सि हि राक्षसानाम् अनन्यदेवत्वमियम् क्षमा च भूमौ च शय्या नियमश्च धर्मे पतिव्रता त्वम् विफलम् ममेदम् कृतम् कृतघ्नेष्विव मानुषाणाम् मोघो हि धर्मश्चरितो ममायम् तथैकपत्नी त्वमिदम् निरर्थकम् या त्वाम् न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा पितुर्निदेशम् नियमेन कृत्वा वनान्यवृत्तश्चरितव्रतश्च स्त्रीभिस्तु मन्ये विपुले क्षणाभिः संरंस्यसे वीतभयः कृतार्थः अहम् तु राम त्वयि जातकामाचिरम् विनाशाय निबद्धभावा मोघम् चरित्वाथ तपोव्रतम् च त्यक्ष्यामि धिग्जीवितमल्पभाग्याम् सञ्जीवितम् क्षिप्रमहम् त्यजेयम् विषेण शस्त्रेण शितेन वापि विषस्य दाता न तु मेऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य शोकाभितप्ता बहुधा विचिन्त्य सीताथ वेणीग्रथनम् गृहीत्वा उद्बध्य वेण्यद्ग्रथनेन शीघ्रमहम् गमिष्यामि यमस्य मूलम् उपस्थिता सा मृदु सर्वगात्री शाखाम् गृहीत्वा च नगस्य तस्य तस्यास्तु रामम् परिचिन्तयन्त्या रामानुजम् स्वम् च कुलम् शुभाङ्ग्याः तस्या विशोकानि तदा बहूनि धैर्यार्जितानि प्रवराणि लोके प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्यपलक्षितानि इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टाविंशः सर्गः